ஹலோ
ஹலோ,
நான் ராகுல் டவுய நபர்னா மொக்கரே உம்பி அப்படி அரைக்கி அப்படின்னு காணும் என் வவுச்சர் ஃபுட்டு மிட்டாய் போதா ராசிடணும்
வவுச்சர் கோடு மெல்லிதா டிபாசிட் மாட்டுறது நோ
அரல்லம் டிபாசிட் ஆரம்பிச்சி நபர்னா வவுச்சர் கோடு சாலாஸ் கப்பா ஒடோஹாலா மல்லசு அவன் பெயிண்டிங்கிறால் ப்ரூம் அல்கப்பது
ஸ்கி வெஸ்ட் வெஸ்டில் குத்துறேன்னு காரேன் የደወልክበት ያልከው ግን አልገባኝም። ዲፖዚት አድርገ ነው ወይ ዝሮ አድርገ ነው?
ዊዝሮ አድርጌ ነው።
ኦኬ፣ ዝሮ አድርገ ቮቸር ውስጥ ገባብህ?
አዎ፣ ቮቸር ወደ የሚለው እንትናልና ወይ ብሎ አለባ ወይ ደግሞ ወዛ ላይ
ስንት ብር ነው?
ይኸውልህ፣
በቮቸር ዊዝሮ ሲደረግ ሁለት አማራጭ ነው ያለው። አንደኛው ቤስት ቤት አካውንት ላይ ቤስት ቤት ሱቅ ላይ ሄዶ ማውጣት ነው። ሁለተኛው ደግሞ ቤስት ቤት አካውንት ተመላሽ ማድረግ ነው።
አዎ፣ ተመላሽ በቃ ማድረግ ይሻላል።
እሺ፣ ተመላሽ እንዴት እንደምታደርግ ልንገርህ። 150 ብር አይደለ?
አዎ።
አካውንት ሂስትሪ ውስጥ ግባና ቮቸር ሂስትሪ የሚል ታገኛለህ። እሱ ሂስትሪ ላይ ቀኑን አስተካክልና በ15 ስለሆነ ስታርት እና ኤንድ ዴቱን አስተካክለ ሰርች ስትለው ይመጣል ቮቸር ኮዱ። ከዛ እሱ ኮድ ኮፒ ታደረግ እና ወደ ኋላ ተመልሰ በፊት ዲፖዚት እንደምታደረገው ማለት ነው። ዲፖዚት የሚለው ውስጥ ገብተ ቮቸር የሚለውን ትምህርት እና ቮቸር ላይ ኮዱን አስገብተ ዲፖዚት ትለዋለ። ከዛ ወደ ቤስት ቤት አካውንት ተመላሽ ይሆናል።
ምኑ አሁን ቮቸር ኮዱ ምንድን ነው?
ምን የሚለው
ኮዱን ለማድረግ ሰርች የማደርገው ምኑ ጋር ነው? ሰርች ማድረግ
ቮቸር ሂስትሪ አካውንት ሂስትሪን ክሊክ አድርገ ከዚያ ቮቸር ሂስትሪ የሚለው ውስጥ ገባ ና ስታርት ና ኤንድ ዴቱን 15 እና 17 ከ15 ከ17 አድርገው ና ከዚያ ሰርች ስትለው ይመጣል ቮቸር ኮዱ 6 ኮድ ዲጂት። እሱን ነው መልሰ ቮቸር ላይ ዲፖዚት የምታደርገው።
አመሰግናለሁ።
ሞክረው ና ልምቢ ካለ ቴሌግራም ላይ ጻፈልን ና በፎቶ ስቴፖች አሉ እሱ ልክልህና በእሱ እየተከተልክ ታስገባለህ። እሺ፣ መልካም ምሽት። እናመሰግናለን። እሺ።